एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहालः प्रचण्डः आत्मना गतदिवसतः प्रारब्धम् भारत भ्रमणम् सद्भावनाभिवृद्धये केन्द्रितम् भवतीति भासते। नयाँ दिल्लीवर्तिना नेपाली दूतावासेन प्रधानमन्त्रिणः सम्मान्ये ह्य आयोजितम् रात्रिभोजन सहितम् कार्यक्रमम् सम्बोधयन् असौ पारस्परिक विश्वासम् सद्भावनाम् च विवद्य नेपालस्य नेपालीनाम् च हिताय स्वस्य भ्रमणम् केन्द्रितम् भवतीति अभासत। भारतीय प्रधानमन्त्रिणः नरेन्द्र मोदिनः औपचारिक मन्त्रणायाम् आत्मना भारत भ्रमणम् विहितमिति ज्ञापयन् असौ अवसरेऽस्मिन् द्विपक्षीय हिताभिरुच्योः विविध विषयेष् विमृश्यते इत्यवदत्। नेपाल भारतयोर्मध्ये शताब्दीभिः प्राचीनः जनस्तरीयश्च सम्बन्धो वर्तते इति द्विरावर्तयन् प्रधानमन्त्री प्रचण्डः एतस्य भ्रमणस्य पश्चात् देशद्वयस्य मध्ये विद्यमानो मैत्रीपूर्ण सम्बन्धः अतिरिक्तम् नवीनोच्चताम् अवाप्स्यति इति विश्वासम् अभिव्यनक्। प्रधानमन्त्री प्रचण्ड भारते अध्ययन वृत्तिपार्जनादि कार्येष् विद्यमानाः नेपालिनः स्वयमेव सद्भावनादूताः सन्ति, नेपालस्य हिताय केन्द्रिताश्च वर्तन्ते इति कृत्वा हर्षम् व्यक्तवान्। असौ भारते अधिगतम् शिल्पम् ज्ञानम् च राष्ट्रस्य समृद्धये उपयुक्तुमपि अन्मरुणत्। यत्र कुत्रापि सन्तोऽपि नेपालिनः नेपालस्य नेपालीनाम् च हिताय सन्तीति चर्चयन् प्रधानमन्त्री प्रचण्डः विदेशस्थितेभ्यो नेपालीभ्यो मतदानस्य कारम प्रदातुम् सर्वकारः क्रियाशीलोस्तीति अवोचत। प्रधानमन्त्री प्रचण्ड वैदेशिक वृत्त्युपार्जनाय स्थिताः नेपालिनश्च सम्प्रत्येव सामाजिक सुरक्षायाः अभियाने संलग्नाः कारिताः सन्तीति चर्चयन् ततो लाभम् ग्रहीतुम् भारतस्थान् नेपालिनः अन्वरुणत। कोविड विषाणोः कारणेन समस्याग्रस्तम् अर्थतन्त्रम् क्रमशः सुधारोन्मुखम् अस्तीति सूचयन् असौ वर्तमान सर्वकारस्य संगठनमनु अर्थतन्त्रस्य सुधाराय चित्तैकाग्रतया प्रवर्तितमिति समस्पष्टयत। सेवा प्रवाहम् अतिरिक्तम् सरलम् जनपक्ष्यम् च विधातुम् सर्वकारः सक्रियोस्तीति ज्ञापयन् प्रधानमन्त्री प्रचण्ड भ्रष्टाचारस्य नियन्त्रणाय सर्वकारः प्रतिबद्धतया क्रियाशीलो वर्तते, शून्य सहनशीलतायाः नीतिश्च अवलम्बितास्तीति प्रावोचत। प्रधानमन्त्री प्रचण्डः अकथयत् स्थानीय प्रादेशिक स्तरयोः संघीय संसदश्च लोकतान्त्रिक प्रक्रिया नवीन चरणम् संसदश्च निर्वाचनस्य पश्चात् नेपालस्य लोकतान्त्रिक प्रक्रिया नवीन चरणम् प्रविष्टा वर्तते, वर्तमान सर्वकारः एतस्य अधिकतम विस्ताराय सक्रियश्च आस्ते। भारत भ्रमणे विद्यमानेन प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह भारतीय प्रधानमन्त्रिणः राष्ट्रिय सुरक्षा परामर्शदाता अजित डोभाल शिष्टाचार मेलवार्ताम् अकरोत्। प्रधानमन्त्रिणा उषिते मोरियातिथि सदने ह्य सम्पन्ने मेलने अनयोर्मध्ये द्विपक्षीय हितस्य अभिरुचेश्च विषयेष् वार्ता सम्भूता आसीत्। तदवसरे भारतीय विदेश सचिव विनय मोहन क्वात्रा च सहभागी आसीत्। ह्य एव प्रधानमन्त्रिणा प्रचण्डेन सह भारतीय विदेश सचिव विनय मोहन क्वात्रा च मेलवार्ताम् व्यदधात्। गतदिने एव प्रधानमन्त्री प्रचण्ड भारतीय प्रधानमन्त्रिणः नरेन्द्र मोदिनः निमन्त्रणायाम् चतुर्दिवसीयस्य औपचारिक भ्रमणस्य क्रमे नयाँ दिल्ली नगरम् प्राप्तः आसीत्। प्रधानमन्त्रिणः प्रचण्डस्य नयाँ दिल्ली स्थिते इन्दिरा गान्धी अन्तर्राष्ट्रिय विमानस्थले भारतीय संघीय विदेश विषय संस्कृति राज्यमन्त्री मीनाक्षी लेखी स्वागतम् व्यदधात्। प्रधानमन्त्रिणः प्रचण्डस्य भ्रमणदले अर्थ परराष्ट्रोर्जो भौतिक पूर्वाधार यातायातोद्योग वाणिज्य मन्त्रिणाम् सचिवानाम् उद्योगिनाम् व्यवसायीनाम् च सहभागिता वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन उप प्रधान रक्षा मन्त्रिणे पूर्णबहादुर खड्गा इत्यस्मै कार्यवाहक प्रधानमन्त्रिणः दायित्वम् निर्धारितम् वर्तते। राष्ट्रपतिना पौडेलेन प्रधानमन्त्रिणः प्रचण्डस्य अनुपस्थितौ प्रधानमन्त्रिणा विधातव्यम् दैनिक प्राशासनिक कार्यम् नेपालस्य संविधानस्य अनुसारेण प्रधानमन्त्रिणः परामर्शेन उप प्रधानमन्त्रिणा खड्गाभिधेन निर्वहणत्वेन निर्धारितमिति राष्ट्रपति कार्यालयस्य प्रवक्त्रा शैलजा रेग्मी भट्टराई इत्यनया ह्य प्रकाश सीतायम विज्ञप्तौ उल्लिखितम् वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन 63-200 वैक्रमार्दम् नेपाल नागरिकताधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् प्रमाणीकृतम् वर्तते। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य 61 धारायाः द्वितीय तृतीय चतुर्थोपधाराणाम् षड्षष्टितम धाराया सर्वोच्च न्यायालयेन प्रतिपादितस्य सिद्धान्तस्य च आधारेण विधेयकम् प्रमाणीकृतमिति राष्ट्रपति कार्यालयस्य प्रवक्त्रा शैलाजा रेग्मी भट्टराई इत्यनया ह्यः प्रकाशितायाम् विज्ञप्तो ज्ञापितम् वर्तते। ह्यस्तनावधि विधेयकस्य अधिनियमस्य स्वरूप प्राप्तये प्रमाणीकरणस्य अभावात् विभिन्ना अवस्था स्थितिश्च उल्लिख्य एतस्यैव विधेयकस्य प्रमाणीकरणाय मन्त्रिपरिषदः उपवेशस्य अस्यैव ज्येष्ठस्य द्वादश दिवसस्य निर्णयेन मन्त्रिपरिषद कार्यालयात् पत्रम् प्राप्तमिति राष्ट्रपतेः कार्यालयो ज्ञापयति। जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवः नागरिकता विधेयकस्य प्रमाणीकरणेन सैव अतपरम् जनतायाः समस्यायाः समाधानम् भविष्यति इति विश्वासम् व्यनक्ति। राजविराजस्थाने ह्यः आयोजिते कार्यक्रमे अध्यक्षो यादवः राष्ट्रपतिना रामचन्द्र पौडेलेन नागरिकता विधेयकस्य प्रमाणीकरणस्य पश्चात् धन्यवादम् अभिव्यज्य अतःपरम् नागरिकता सम्बद्ध समस्या समाधास्यते इति विश्वासम् अभिव्यनक। लोकतान्त्रिक समाजवादी दलेन नागरिकता विधेयकस्य विहितं प्रमाणीकरणम् अभ्यर्थितं वर्तते। लोसपा दलस्य अध्यक्षेण महन्त ठाकुरेण ह्यः विज्ञप्तिं प्रकाश्य विधेयकस्य प्रमाणीकरणेन नागरिकता विहीनानां नागरिकाणां पीड़ा समनस्य कार्यं सम्भूतमस्ति इति उक्तं वर्तते। लोसपा दलेन समग्रतायां नागरिकता सम्बद्ध समस्याः अपि समाधास्यन्ते इति विश्वासः व्यक्तोऽस्ति। आवासीयतर नेपाली संघेन राष्ट्रपतिना रामचन्द्र पौडेलेन 63-200 विक्रम वर्षीयं नेपाल नागरिकता अधिनियमं संशोधयितुं निर्मितस्य विधेयकस्य प्रमाणीकरणेन सहैव आवासीयतर नेपालिनः प्रसन्नाः सन्ति इति ज्ञापितं वर्तते। संघस्य कार्यकारी अध्यक्ष डा बद्री केसी अगदत् आवासीयतर नेपालीभ्यः नेपालस्य संविधानेन प्रदत्ताम् आर्थिक सामाजिक सांस्कृतिकाधिकारैः सहिताम् आवासीयतर नेपाली नागरिकतां प्राप्त मार्गः प्रशस्तीभूतो वर्तते। नागरिकता विधेयकेन विश्वस्मिन् विश्वे प्रसृतैः लक्ष्यशः आवासीयतर नेपालीभिः 3-200 विक्रम वर्षात् उत्थाप्यमाना आवासीयतर नेपाली नागरिकतायाः याचना सम्बोधिता स्थिति असौ उदैरयत। अध्यक्ष डाक्टर केसी नागरिकतायाः प्रमाणीकरणेन आविश्वं विद्यमानान् नेपालिनो मातृभूम्या सह योजयित्वा विदेशे अर्जितानि ज्ञानशिल्प वित्तानि नेपालं प्रवेशयितुं च अतिरिक्त दायित्वस्य बोधः कारितोऽस्ति इति प्रत्यपादयत। नेपाल सर्वकारस्य विश्वकोषागारस्य च मध्ये 85 चतुरशीतेः कोटीनां च रूप्यकाणां सौविध्यपूर्णस्य ऋणस्य अब्जद्वयस्य 60 कोटीनां च रूप्यकाणाम् अनुदानस्य च प्राप्तिसम्बद्धायां संविदायां हस्ताक्षरणस्य कार्यं सम्पन्नमस्ति। ह्यः अर्थमन्त्रालये आयोजिते कार्यक्रमे अर्थसचिवः अर्जुन प्रसाद पोखरेलः विश्वकोषागारस्य कृते मालदीव्स नेपाल श्रीलंकानां कृते देशीय निर्देशकः फारिस हदाद जर्भुश्च संविदायां हस्ताक्षराणि अकुरुताम। विश्वकोषस्य अन्तर्राष्ट्रिय विकास संघेन शिक्षायाः कृते वैश्विक सहकारिता कार्यक्रमस्य माध्यमेन नेपालस्य सर्वकारीय विद्यालयानां पाठ्यक्रम विकासे पूर्वाधार निर्माणे शिक्षणे च गुणस्तरस्य सुधाराय एवं ऋणं सहयोगश्च प्रदत्तौ स्तः। नेपाले सञ्चाल्यमानस्य विद्यालय क्षेत्र सुधार कार्यक्रमस्य माध्यमेन वित्तमेतद् व्ययीकरिष्यते। स्वास्थ्य जनसंख्या मन्त्रालयेन विपन्ना सहाय रुग्णानां कृते निर्धारितां निःशुल्कोपचार सेवाम् अनिवार्य रूपेण क्रियान्वेतुं निर्दिष्टं वर्तते। अनुगमनस्य क्रमे मापदण्डः नपालितः यान विश्रान्तिस्थल शुल्कं गृहीतं कार्यरत जनशक्त्यै न्यूनतम पारिश्रमिकं न प्रदत्तं चेतिवेदनायाः प्राप्ते पश्चात् मन्त्रालयेन स्वास्थ्य संस्था सञ्चालन सम्बद्धम् 77-200 विक्रम वर्षीयम् मापदण्डम् पूर्णतः पालयितुम् निर्दिष्टम् वर्तते। मन्त्रालयेन ह्य सर्वेभ्य सर्वकारीयेभ्य नैजेभ्य सामुदायिकेभ्यश्च चिकित्सालयेभ्य प्रतिष्ठानेभ्य चिकित्सा महाविद्यालयेभ्यश्च परिपत्रम् कृत्वा समग्र शय्यानाम् 10% विपन्ना सहाय रुग्णानाम् कृते पृथक्कृत्या उपचार सेवाम् प्रदातुम् निर्दिष्टम् अस्ति। इति समाचाराः।